एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति विश्वस्मिन् शान्तये द्वन्द्वरत पक्षैः द्वन्द्वम् परित्यज्य संवादाय बलम् देयम्। संयुक्त राष्ट्रसंघस्य निशस्त्रीकरणे न सम्बद्धेन उच्चस्तरीय प्रतिनिधिमण्डलेन सह पूर्वी द्युः विहिते मेलने प्रधानमन्त्री प्रचण्ड नेपालः सदैव विश्वस्मिन् शान्ति स्थापनाय पक्षस्थिति स्पष्टीकृतवान्। प्रधानमन्त्री प्रचण्डः बुद्धस्य जन्मभूम्या शान्तिप्रिय देशेन नेपालेन विश्वस्मिन् विश्वे शान्ति स्थापनायै अन्तर्राष्ट्रिय मञ्चेषु उल्लेखनीय भूमिका निरूह्यमाना स्थिति अस्मारयत। प्रधानमन्त्री प्रचण्डः शान्ति स्थापनायै संयुक्त राष्ट्रसंघस्य प्रयासेभ्य नेपालेन सदैव सहयोग विधीयते, विश्वशान्त्यर्थं नेतृत्वदायिनी भूमिका निरूह्यते चेति प्रावोचत। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् बेलायत देशस्य सेनारथिना गोर्खा सैन्य विभागस्य महासेनान्या रिचार्ड वार्डलो ओबी इत्यनेन सहितेन समूहेन गोर्खा सेनायाः विभागस्य प्रतिवेदनम् प्रस्तुतम् वर्तते। तदवसरे राष्ट्रपतिः पौडेलः विश्वशान्तेः स्थिरतायाः स्वतन्त्रतायाश्च स्थापनम् नेपालस्य बेलायत देशस्य च संयुक्तम् उद्देश्यमस्तीति चर्चयन् परस्परम् सहयोगम् विधाय अग्रे वर्धनीयम् इत्यभासत। राष्ट्रपतिः पौडेलः गोर्खा सैन्य समूह नेपाल बेलायत देशयोः सम्बन्धस्य सेतुरस्तीति भाषमाणः बेलायत देशस्य भूतपूर्व गोर्खा सैनिकानाम् समस्यानाम् सम्बोधनार्थम् कूटनीतिक क्षेत्रे जायमानम् विमर्शनम् बेलायत देशेन शीघ्रम् निष्कर्षम् प्रापयिष्यते इति विश्वासम् अभिव्यनक। राष्ट्रपतिः पौडेलः जलवायु परिवर्तनस्य विषयः विश्वस्य चिन्तायाः विषयोस्तीत्यतः अत्र सर्वैः मिलित्वा कार्यम् करणीयम् इति प्रावोचत। संचार सूचना प्रविधि मन्त्री रेखा शर्मा भासते समाजस्य कठिनानाम् परिस्थितीनाम् प्रतिकरणाभियानस्य नेतृत्वम् युवसन्तत्या कर्तव्यम्। पुलचक वर्तिनी स्थपति महाविद्यालये ह्यस्तनाद दिवसाद प्रारब्धम् विंशम् राष्ट्रिय प्राविधिक महोत्सवम् उद्घाटयन्ती संचार मन्त्री शर्मा प्रत्येकम् क्षेत्रे रूपान्तरण कारिणीम् योजनाम् निर्मातुम् सर्वकारः अग्रेसरो वर्तते इत्यभासत। मन्त्री शर्मा योग्यताम् क्षमताम् च आधृत्य विश्वविद्यालयस्य नेतृत्वस्य चयनस्य पक्षे सर्वकारोस्तीति असूचयत्। ऊर्जो जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत कथयति मासाभ्यन्तरे नवीकरणीयोर्ज सम्बद्धम् विधेयकम् संघीय संसदि प्रस्तुष्यते। मन्त्री बस्नेत सम्प्रति आराष्ट्रम् प्रतिशतम् अष्टानवत्याम् गृहेषु विद्युत् प्राप्तास्ति। आगामिनः सार्धैक वर्षस्य अभ्यन्तरे शतप्रतिशतम् गृहेषु विद्युतः प्रापणत्वेन कार्यम् अग्रे वर्धापितमस्तीति असूचयत्। मन्त्री बस्नेत विद्युतः व्ययस्य अभिवर्धनस्य लक्ष्येण सर्वकारेण योजनाबद्धतया सार्थक प्रयासः विद्यमानोस्तीति असूचयत्। मन्त्री बस्नेत जलविद्युदपि नवीकरणीयोर्जः एवास्तीत्यतः अस्याः अतिरिक्त लाभः ग्रहणीयः इत्यत्र बलम् प्रददत्। ऊर्जो व्यापाराय सर्वकारेण उच्चैः प्राथमिकता प्रदत्तास्तीति उदैरयत्। नगरीय विकास मन्त्री सीता गुरूङ निगदति सर्वैः राजनीतिक दलैः विकास निर्माण कार्येषु संलग्नैर्भाव्यम्। मेची नगरपालिकया आयोजिते राष्ट्रियावास निर्माण संस्थायाः काँक्रभित्ता स्थाने अवस्थितायाः षष्टि बिघा परिमितायाः भूमे पालिकाभ्यः संघ संस्थाभ्यश्च हस्तान्तरणस्य विषये सम्बद्ध पक्षै सह ह्य विहिते विमर्शने मन्त्री गुरूङ सर्वैः दलैः विकास निर्माण कार्येषु ध्यानम् देयम् इत्यभासत। विकास निर्माण कार्ये केनापि राजनीतिः न करणीया इति भाषमाणा मन्त्री गुरूङ मेची नगर नगरपालिकायाः क्षेत्रे राजनीतिक दलानाम् परस्परम् एकतया सहकारेण च कोशी प्रदेशस्य निदर्शनाभ्याम् भाव्यम् इत्यत्र बलम् प्रादात्। कार्यक्रमे नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा कर्मचारिणः निर्वयेन कार्यम् कर्तुम् अनुरुन्धानः राजनीतिक दलेभ्यः सहयोगः विधीयते एवेति प्रतिबद्धताम् अभिव्यनक। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराँती निगदति देशे पर्यटनस्य विकासाय शान्ति सुरक्षा प्रथमः आधारभूतश्च शपथो वर्तते। काष्ठमण्डपस्य भ्रुकुटी मण्डपस्थाने पञ्चचत्वारिंशत्तमस्य पर्यटकीय प्रहरी दिवसस्य अवसरे आयोजिते कार्यक्रमे मन्त्री किराँती शान्ति सुरक्षायाः अभावे समग्र पर्यटन क्षेत्रस्य विकासस्य अनुभूतिः कर्तुम् न शक्यते इत्यभासत। मन्त्री किराँती पर्यटन क्षेत्र वृत्त्युपार्जनानि सृष्ट्वा आर्थिक विकासेन सुन्दरस्य समृद्धस्य च समाजस्य निर्माणाय सम्बद्धैः सर्वैः पक्षैः अग्रेसरणीयम् इत्यत्र बलम् प्रादात्। नेकपा एमाले दलस्य महासचिव शंकर पोखरेल ब्रूते मध्य पर्वतीय क्षेत्रम नेपालस्य समृद्धे आधारशिलाया रूपेण स्थापनीयम्। एमाले दलस्य म्याग्दी जनपद शाखाया दशमं जनपदाधिवेशनम ह्य बेनी स्थाने उद्घाटयन् महासचिव पोखरेल राजनीतिक्या अस्थिरतया सामाजिक्या अराजकतया च विकास समृद्धो बाधा सृष्टा स्थिति अवोचत। महासचिव पोखरेल दलस्य मध्य पर्वतीय लोकमार्ग केन्द्रितेन अभियानेन परिचितानां समस्यानां सम्भावनायाश्च विषयाः राजनीतिक विषयाः विधास्यन्ते इति असूचयत्। महासचिव पोखरेल निवेशनस्य सुरक्षायाश्च वातावरणं निर्माय यूनां पलायनस्य न्यूनीकरणस्य नीतिं ग्रहीतुं सर्वकारम् अन्वरुणत्। नेपाल पञ्चाङ्ग निर्णायक विकास समित्या एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षस्य कृते पञ्चदश पञ्चाङ्गेभ्यः स्वीकृतिः प्रदत्ता वर्तते। आगामिनः विक्रम वर्षस्य कृते समित्या पञ्चदश पञ्चाङ्गेभ्यः स्वीकृतेः प्रदानाय निर्णीतमिति पञ्चाङ्ग निर्णायक समितेः सदस्य सचिवः सूर्य ढुङ्गेलः अज्ञापयत्। स्वीकृतानि पञ्चाङ्गानि अस्यैव माघमासस्य पञ्चदश दिवसात् आपणेषु लब्धुं शक्यन्ते इति समित्या ज्ञापितं वर्तते। तराई क्षेत्रस्य जनपदेषु निवसन्ति चायजातिः पश्चवर्तिनी वर्गेषु सूचीकृता वर्तते। राष्ट्रिय समावेशी आयोगस्य ह्यस्तनोपवेशेन चायजातिम् नेपालस्य पश्चवर्तिवर्गे समाविश्य सूचीकृता वर्तते। तराई क्षेत्रस्य सुनसरी मोरङ झापा सर्लाही रौतहट जनपदेषु निवसन्ति चायजातिः एतत्पूर्वं कस्मिन्नपि समुदाये सूचीकृता नासीत्। नेपाली कांग्रेस दलस्य नेता प्रकाश मानसिंह निगदति स्वकीयां न्यूनताम दुर्बलताम च संशोध्य नेपाली कांग्रेस दलेन परिष्कृतेन भाव्यम्। नेपाली कांग्रेस दलस्य बागमती प्रदेश समितेः स्थापना दिवस समारोहम ह्य सम्बोधयन् नेता सिंह पदम अधिगत्य स्वकीयं दायित्वं निर्वोढुं नेतारः तत्पराः न भवन्तीति भासमाणः सुशासनाय आर्थिक क्रियाकलापाय च सर्वैः सक्रियैर्भाव्यम् इत्यत्र बलं प्रादात्। नेपालस्थितेन भारतीय राजदूतावासेन पूर्वेद्यो भारतस्य पञ्चसप्ततितमः गणतन्त्र दिवसः समायोजितो वर्तते इति समाचाराः।